ततिशं देवयन्ती शमानां रन्धान वेणो रसर सुधया पूरयन् गोपवृन्दैः वृन्दारण्यं स्वपदरमणं प्राविशत् कीर्तिः इति वेणुरवं राजन् सर्वभूतमनोहरं श्रुत्वा ब्रजस्त्रियः सर्वा वणयन्तो धीरे धीरे अक्षन्वतां फलमिदं न परं विरामः सख्या पशूननुपदेशयतोर्वयस्यै वस्त्रं व्रजेत सुतयोरनुबेन जुष्टम् निर्वाणिति मनुरास्य कटाक्षमोक्षम् स्यूतप्रवालवरहस्तवकोत्पलाभ्या मालानुप्रास्य परिधानविचेत्रदेशो मध्ये विनीयतुरलं पशुपालगोष्ठां रङ्गीयथा न च परो क्वचिदायमानो गोप्या किमाचरदयं कुशलाश्नवेणु दामोदरादरशुधामपि गोपिकानां भुङ्क्ते स्वयं यदि वसिष्ठरसं हरेयो यस्त्वशुत्रु मम च सर्वो यथार्या बृन्दावनं सखिभ्यो वितनोति कीर्ति यद्देवकी सुतपदाम्बुजलाकलक्ष्मी गोविन्दवेणुमनमस्यमयूरनृत्यम् दीक्षादिशान्तवरतान्यसमाससत्त्वम् धन्यास्वमूढधतयोऽपि हरिण्य एता यानन्दनन्दनमुपासविचित्रवेशम् आकर्ण्य वेणुरणितं सह कृष्णसारा दिव्याङ्गगुरुविरचितां प्रणयावलोकैः जयति ते जन्मना व्रज श्रयस इन्दिरा शश्वदत्रयि दयिते दृश्यता दीक्षुतावता त्वयि धृता तव त्वां विचिन्वते शरदुदासये साधुजात सरसिजोदर शीमुषादृश सुरसिदासिते शुकुदासिका वरसिन्नतो नीह किंवद विसृजलाप्ययाद् व्यालराक्षसा वर्षमारुतात् देद्युतानलात् भ्रशमयात्मजात् विश्वतो भयात् ऋषभते वयम् रक्षतामुः न खलु गोपिका नन्दनो भवान् अखिल देहिना मन्तरात्मद्र विखन सार्थितो विश्वगोप्तये ससुदेयमान् सात्वतां कुले विरचिताभयं वृष्णिभूयते चरणनीयशान् कर सरोरुहम कांत कामदम शिरशे देहिना शीकर ग्रहम। भ्रकुते तलिदंबराय गुंजा वसंत परिक्षल सम्मुखाय वन्यस्वजे कवल वेत्र विषाणुदेनु लक्ष्मप्रिये मृदुपदे पशुपांगजाय अश्यापि देखु बपुषे मदनोग्रहस्य स्वेच्छामयशनतभूतमयशकोपी नेशे महीत्वशितं मनसांतरेण साक्षात् वैव किमतात्मसुखानुभूते ज्ञाने प्रयासमुदपाशनमन्त एव जीवन्ति सन्मुखरितां भवदीयवार्ताम् स्थाने स्थिता श्रुतिगतां सनवां मनोभिः येता यशोदितयतोऽप्यचिते श्रलोक्याम् श्रेयः स्तुतिं भक्तिमुदश्यते विभो क्लेशं त्येके बलबोधलब्धये तेषामशो क्लेशलये वसिष्यते ज्ञान्यद्यथा स्थूलतुषावघातिनां पुरेह भूमन् बहवोऽपि योगिन् त्ववत्पितेहान्निजकर्मलभ्या विबोध्य भक्त्यैव कथोपनीतया प्रपेदिरिञ्जोच्युतते गतिं पराम् तथापि भूमन् महिमा गुणश्यते विबोधमर्मत्यमलान्तरात्मिभिः अवेक्रियास्वानमवादरूपतो अनन्यबोध्यात्मतया न चान्यथा गुणात्मनस्तेऽपि गुणान् विमातुं हितावते न शरीतरिष्य कालेन यैर्वा विमता सुकल्पये पूर्वासवाखे विहिताजुवाशः तत्तेऽनुकम्पां सुसमीक्षमाणो भुञ्जान् एवात्मकृतं विपातं हृद्वाग्वपुर्वेत्थं नमस्ते जीवेति यो मोक्षपदे सदाय भा। श्रीशुकुवाच इत्थं सरस्वच्छजलं पदमाकरसुगन्धिना न्यविषद्वायुना वातं सगोगोपालकोच्युता कुसमितवनराजुतस्मृभङ्गा ध्वजकुलदुष्टसरसरीं महीन्द्रं मधुपतिरवगाह्य चारयङ्गा सह पशुपालवलश्चोकुजवेणुं तद्व्रजस्त्रिये आश्रित्य वेणुगीतं स्मरोदयं काश्चित् परोक्षं कृष्णस्य स्वसखिभ्योऽम्बवर्णयन् तद्वर्णयितुमारब्धा स्मरन्त्य कृष्णचेष्टितं नाशकं स्मरवेगेन दीक्षिप्ता मनशो नपा वरहापीडं नटवरवपुः कर्णयो कर्णिकारं बिभ्रतवाशः कनककपिशं वैजयन्तीं च मालां दन्धाणुवेणोरधरसुधया पूरयन् गोपवृन्दैः वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्ति इतु वेणुरपं राजन् सर्वभूतमनोहरं श्रुत्वा भजस्त्रिय सर्वा वर्णयन्तो भिरे भिरे गोप्योचु
अक्षन्वतां फलमिदं न परं विदामः सक्षा पशूननुपये शयतोर्वयस्यै वक्त्रं वजे ससुतयोरणुपेन जुष्टम् यैर्वानिपीतमनुरक्तकटाक्षमोक्षम् च्यूतप्रवालपरहस्तवकोप्तलाभ्य मालानुप्राप्य परधानविचित्रवेषौ मध्ये विरीयतुरुणं पशुपालगोष्ठां रङ्गे यथा नटवरौ कचुगायमानो गोप्यः किमाचरदयं कोशदास्म वेणु दामोदरादरशुदामपि गोपकानाम् पूर्णा पुलिङ्गेरुदाय पदाब्जराधा श्रीकुङ्कमेन दयता स्तनमन्दतेन तद्दर्शनस्मररुजस्तन रोषतेन लिम्पन्ति आननुकुचे जहुसदाधि हन्ताय मद्रविला हरिदासवर्यो यद् रामकेशचरणस्पर्श प्रमोद मानं तनोति सह गो गणयोस्तयोर्यात् पानीयसूयवसकन्दरकन्दमूलैः।